राम गीता जी का पाठ दूसरा अध्याय श्लोक 21 से 30 तक। राम
वसुदेव सुचन्देवम् पंचजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् वेदाविनाशिनम् देत्यम् येन मजमव्ययम् कथं स पुरुषः पार्थः गङ्गातयति हन्तिकम् वासांसि जीर्णामि यथा विहाय नवानि गृह्णाति नरोपराणि तथा वीराणि विहाय जीर्णा नान्यानि सुव्याति नवानि देहि नैनं छिन्दन्ति सस्यानि नैनं दहति पावक न चैनं प्रेरयन्त्यापो न शोषयति मारुत अच्छेद्योयमदायो ये महक्लेद्यो शोष्येव च नित्यः सर्वगतः स्थानो रचलोऽयं सनातन अव्यक्तोऽयमचिन्त्योय न विकायोऽयमुच्यते तस्मादेवं विधिक्लैनम् नानुशोचितुमर्हसि अथ चैनौ नित्यजातम् नित्यं वामान्यसे मृतम् तथापि त्वं महाबाहु नैवं शोचितुमर्हसि जातस्य हि ध्रुवो वृत्यो ध्रुवं जन्ममृतस्य च तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव तत्र का परिदेवना आश्चर्यवत् पश्यति कश्चिदेन माश्चर्यवत् वदति तथैव चान्या आश्चर्यवचैनमन्यः शृणोति श्रोत्वाभ्येन वेदन चैव कश्चित् देहि नित्यमवधूयम् देहि सर्वस्य भारत तस्मात् सर्वाणि भूतानि न संशोचितुमर्हसि देहि नित्यमवधूयम् देहि सर्वस्य भारत तस्मात् सर्वाणि भूतानि न संशोचितुमर्हसि वसुदेव सुचन्देवम् पंचजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरु
हरे शरणम 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 हरे शरणम।